इयम् आकाशवाणी। सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः ललितमोहनः तिवारी। आदौ मुख्य वार्ताः। भारतीय जनता पार्टी इति दलेन आगामी लोकसभा निर्वाचनाय संकल्पपत्र इति नाम्ना निजघोषणापत्रं प्रख्यापितम्। एतद् घोषणापत्रं समान नागरिक संहिता, एकं राष्ट्रं एकं निर्वाचनम्, एकल मतदात्री सूची च एतान् संकल्पान् प्रकटयति। डॉ बी आर अम्बेडकरस्य जयन्त्यवसरे अद्य राष्ट्रपतिः, उपराष्ट्रपतिः, प्रधानमन्त्री च संसद परिसरे तस्मै पुष्पाञ्जलयः समर्पितवन्तः। विदेशमन्त्रालयेन इस्राइल ईरान देशयोर्मध्ये संवर्धमाने पारस्परिक विद्वेषे अभिशंका अभिव्यक्ता। जम्मू कश्मीरे भीषण हिमपातानन्तरं मुगलपथं पिहितं जातम्। अपि च रक्षानुसंधान विकास संघटनेन भारतीय सैन्यबलेन च स्वदेशे निर्मितस्य टैंकरोधि गाइडेड प्रक्षेपास्त्रस्य साफल्येन परीक्षणं कृतम्। भारतीय जनता पार्टी इति दलेन आगामी लोकसभा निर्वाचनाय संकल्पपत्र इति नाम्ना निजघोषणापत्रं प्रख्यापितम्। एतद् घोषणापत्रं समान नागरिक संहिता, एकं राष्ट्रं एकं निर्वाचनम्, एकल मतदात्री सूची च एतान् संकल्पान् प्रकटयति। अस्मिन् अवसरे प्रधानमन्त्री नरेन्द्र मोदी, भाजपेति दलाध्यक्षः जेपी नड्डा, वरिष्ठ नेता राजनाथ सिंह, गृहमन्त्री अमित शाह, वित्तमन्त्री निर्मला सीतारमणं समेत्य अन्ये च वरिष्ठ नेतारः उपस्थिता आसन्। अवसरेऽस्मिन् श्रीमोदी प्रोक्तवान् यत् एतत् संकल्पपत्रं युवानः, महिलाः, कृषकान्, निर्धनान् च सशक्तं करोति, यतो हि एते विकसित राष्ट्रस्य चत्वारः स्तम्भाः सन्ति। श्रीमोदी अवदत् यत् संकल्पपत्रमेतत् जीवनस्य गुणवत्तायां च आधारितो अस्ति। श्रीमोदी प्रोक्तवान् यत् भाजपा इति दलेन वरिष्ठ नागरिकान्, किन्नर समुदायस्य जनान् च आयुष्मान् भारत योजनायाः अन्तर्गतम् आनेतुं निर्णयाः विहिताः। अस्मिन् संकल्पपत्रे भाजपा इति दलेन प्रधानमन्त्री गरीब कल्याण अन्न योजनायाः अन्तर्गतं निःशुल्कं खाद्यान्नं प्रदातुं अग्रिम पञ्चवर्षाणि यावत् प्रवर्तितुं प्रतिपादितम्। तिस्रः कोटि महिलाः लखपति दीदी इति भवेयुः एवं संकल्पपत्रे प्रतिपादितम्। सममेव प्रधानमन्त्री सूर्यग्रह भोजनान्तर्गतं वैद्युतकीय प्रपत्रं शून्यीकर्तुम् इति संकल्पपत्रे प्रतिपादितम्। अद्य डॉ बी आर अम्बेडकरस्य जयन्ती वर्तते। डॉ बी आर अम्बेडकरस्य जयन्त्यवसरे अद्य राष्ट्रपतिः द्रौपदी मुर्मू, उपराष्ट्रपति जगदीप धनखड़ः, प्रधानमन्त्री नरेन्द्र मोदी च संसद परिसरे तस्मै पुष्पाञ्जलयः समर्पितवन्तः। सममेव देशवासिनां कृते शुभकामनाश्चापि प्रदत्तवन्तः। राष्ट्रपतिः एकस्मिन् ट्वीट सन्देशे प्रोक्तवती यत् सामाजिक परिवर्तनस्य अग्रदूतेन, बहुमुखी प्रतिभायुक्तेन बाबा साहेब अम्बेडकरेण न्यायविद्रूपेण, शिक्षाविद्रूपेण, अर्थशास्त्रित्वेन, समाजसुधारकत्वेन, राजनीतिक नेतारूपेण च देशस्य कृते असाधारणं योगदानं प्रदत्तम्। श्रीधनखडेन डॉ अम्बेडकरद्वारा स्थापितानां आदर्शानां परिपालनाय अपि च तस्य न्यायपूर्ण समाजस्य दृष्टिकोणं साकारयितुं कर्तुं जनैः समावानं विहितम्। प्रधानमन्त्री प्रोक्तवान् यत् डॉ अम्बेडकरस्य दृष्टिकोणमालक्ष्य अद्यतन नवभारतस्य द्युतिः पूर्णरीत्या भिन्नास्ति। रक्षानुसंधान विकास संघटनेन भारतीय सैन्यबलेन च स्वदेशे निर्मितस्य टैंक गाइडेड प्रक्षेपास्त्रस्य साफल्येन परीक्षणं कृतम्। परीक्षणमिदं राजस्थानस्य पोखरणे ह्य जातम्। अस्य प्रक्षेपास्त्रस्य उपयोग अहर्निशं कर्तुं शक्यते। एतस्मिन् प्रक्षेपास्त्रे आधुनिक योद्धृ टैंक वाहनस्य ध्वंसनस्य क्षमतापि विद्यते। रक्षामन्त्री राजनाथ सिंह सफल परीक्षणानन्तरं संघटनाय भारतीय सेनायै च वर्धापनानि प्रदत्तवान्। असौ प्रक्षेपास्त्रमिदं उन्नत वैद्युतिकीय आधारित रक्षाप्रणाल्यः विकासे महत्वपूर्ण पदक्षेपः कथितवान्। कांग्रेसदलेन लोकसभा निर्वाचनाय इतोऽपि षोडश प्रत्याशिनाम् अन्या सूची प्रकाशिता। कांग्रेसदलस्य सांसदः मनीष तिवारी चण्डीगढ लोकसभासनाय स्पर्धयिष्यते। हिमाचलप्रदेशस्य मन्त्री विक्रमादित्य सिंह मण्डी लोकसभासने भाजपेति दलस्य प्रत्याशिनं कंगना रनौत इत्येतां विरुद्धम् अवतारितः। पूर्व केन्द्रीय मन्त्री श्रीकान्त जैनः ओडिशायाः बालेश्वर क्षेत्रात् प्रत्याशी भविष्यति। अनेन दलेन गुजरातराज्ये विधानसभायाः उपनिर्वाचनाय चतुर्णां प्रत्याशिनां नामानि अपि प्रख्यापितानि। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चल दूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। प्रधानमन्त्री श्री नरेन्द्र मोदी प्रोक्तवान् यत् एतत् संकल्पपत्रं युवभ्यः महिलाभ्यः कृषकेभ्यः निर्धनेभ्यः च समर्पितम् अस्ति। असौ प्रोक्तवान् यत् सामाजिकरूपेण भौतिकरूपेण च सुदृढविस्तारः भाजपेति दलस्य सर्वोच्च प्राथमिकता अस्ति। मध्यप्रदेशस्य नर्मदापुरम् जनपदे एकां जनसभां सम्बोधयन् श्रीमोदी प्रोक्तवान् यत् भाजपा इति दलेन आधुनिकभारते बाबा अम्बेडकरस्य योगदानाय नवीनाभिज्ञानं प्रदत्तमस्ति। जनाः निज दूरभाषयन्त्रेण यत्किमपि वित्तस्य आदानं प्रदानं कुर्वन्ति तस्य नाम भीम यूपीआई इति वर्तते। यः बाबा अम्बेडकरस्य नामाधारितोऽस्ति। श्रीमोदी अवदत् यत् एतत् बाबा साहेबस्य संविधानमेवास्ति येन आदिवासी परिवारस्य पुत्री भारतदेशस्य राष्ट्रपतिपदम् अलंकरोति। असौ प्रोक्तवान् यत् भारत प्रशासनेन भगवान् बिरसा मुण्डा इत्यस्य जयन्ती आदिवासी गौरवदिवसत्वेन घोषितमस्ति। प्रधानमन्त्री श्रीनरेन्द्रमोदी विश्वस्मिन्नपि विश्वे व्यावृत्त अनिश्चितता विद्वेषयोः अन्तर्गतम् राष्ट्रे एकस्य सुदृढ स्थिरप्रशासनस्य आवश्यकतयोः बलं प्रदत्तवान्। भाजपेति दलस्य संकल्पपत्र विमोचनावधौ स्वीयोद्बोधने प्रधानमन्त्री प्रोक्तवान् यत् संकटस्य एतादृशे समये एतेषु क्षेत्रेषु निवसन्तानां भारतीयानां सुरक्षा तस्य प्रशासनस्य प्राथमिकता अस्ति। तेनोक्तं यत् एतादृशे साम्प्रतिके समये भारते पूर्ण बहुमत प्राप्तस्य प्रशासनस्य महत्ता इतोऽपि अधिका जाता। जम्मूकश्मीरे भीषण हिमवर्षणानन्तरं जम्मूसम्भागस्य सीमवर्ति जनपदयो राजौरी पूंछ क्षेत्रे कश्मीरोपत्यकाया शोपियां जनपदेन योजयिष्यमाणं मुगलपथम् अग्रिमां सूचनां यावत् वाहनानां यातायाताय पिहितमस्ति। प्रतिकूल वातावरणम् आलक्ष्य मार्गः पिहिताकृतः। जम्मूकश्मीर राज्ये पर्वतीय डोडा जनपदं शताधिक वर्षाणां 37 अधिकानां मतदातृणां स्वागतं कुर्वत् ऐतिह्य विरचने स्थाने अस्ति। एतस्मिन् जनपदे 37 मतदातारः एतादृशाः सन्ति ये शताधिकानां वर्षाणां वयोवृद्धाः सन्ति। जनपद निर्वाचन अधिकारी एतादृशेभ्यः जनेभ्यः विशिष्ट व्यवस्थां कृतवान्। एते जनाः मतदानार्थं वाह्यपल्यङ्के आगमिष्यन्ति। विदेशमन्त्रालयेन इस्राएल ईरान देशयोर्मध्ये संवर्धमाने पारस्परिक विद्वेषे अभिशंका अभिव्यक्ता। मन्त्रालये निगदितं यत् भारतं इस्राएल ईरान देशयोर्मध्ये प्रतिकूलस्थितिं प्रति गभीररूपेण व्याकुलमस्ति। अनेन क्षेत्रे शान्तिः सुरक्षा च संकटे स्तः। भारते उभाभ्यां देशाभ्यां हिंसां दूरीकर्तुं कूटनीतिपथि प्रत्यागमनाय च प्रार्थितः। अवधेयं वर्तते यत् ईरान देशेन इस्राएल देशे ड्रोन बैलिस्टिक क्रूज इत्यादिभिः प्रक्षेपास्त्रैः आक्रमणं कृतम्। सम्पूर्णे इस्राएल देशे प्रातः कालादेव वायवीय संचेतनायन्त्रं गुञ्जायमानमस्ति। भारतीय मल्लस्पर्धा क्रीडिका राधिका शनिवासरे किर्गिस्तानस्य बिश्केक नगरे एशियाई मल्ल चैम्पियनशिप प्रतिस्पर्धायां महिलानां 68 किलोग्राम मितस्य वर्गे रजत पदकं विजितवती। अपरा क्रीडिका शिवानी पवारः महिलानां 50 किलोग्राम मिते वर्गे कांस्य पदकं स्वीकृतवती। राधिका इत्येषा कजाकिस्तानस्य अल्बिना कैरगेल्डिनोवा इत्येतां 12-2 अंकैः पराजितवती। अन्ते च मुख्यवार्ताः पुनरेकवारम्। भारतीय जनता पार्टी इति दलेन आगामी लोकसभा निर्वाचनाय संकल्पपत्र इति नाम्ना निज घोषणापत्रं प्रख्यापितम्। एतत् घोषणापत्रं समान नागरिक संहिता एकं राष्ट्रम् एकं निर्वाचनम् एकल मतदात्री सूची च एतान् संकल्पान् प्रकटयति। डॉ बी आर अम्बेडकरस्य जयन्त्यवसरे अद्य राष्ट्रपति उपराष्ट्रपति प्रधानमन्त्री च संसत् परिसरे तस्मै पुष्पाञ्जलयः समर्पितवन्तः। विदेशमन्त्रालयेन इस्राएल ईरान देशयोर्मध्ये संवर्धमाने पारस्परिक विद्वेषे अभिशंका अभिव्यक्ता। जम्मूकश्मीरे भीषण हिमपातानन्तरं मुगलपथं पिहितं जातम्। रक्षानुसन्धान विकास संघटनेन भारतीय सैन्यबलेन च स्वदेशे निर्मितस्य टैंकरोधि गाइडेड प्रक्षेपास्त्रस्य साफल्येन परीक्षणं कृतम्। इति वार्ताः।